इन्द्रा वरुणा जुवमध्वरा जनो विषेजना जमहि शर्म जच्छतम् दीर्घ प्रजज्जमति जो मनुष्यति भजन्तजेम मृदना सुदोढ्याः सम्राणन्य स्वराणन्य उच्यते वाम् महान्ताविन्द्रा वरुणा महावसो विश्वे देवासः परमेभ्यो मनिसं वामोजो वृषणा संबलं दधुः अन्वपाङ्खान्यतरन्तमोजसा सौर्यमैरयतं दिविप्रभम् इन्द्रावरुणामदे अस्य मादिनो पिन्वतमपितः पिन्वदन्धिजाः युवामिद्युत्सवृतना सुबह्नजो युवाङ्क्षेमस्य प्रसवे मिदग्नवः ईशानावस्व उभयस्य कारव इन्द्रावरुणा सुहवाहवामहे इन्द्रावरुणा यदिमानि चक्रधरविश्वा जातानि भुवनस्य भज्मना क्षेमेण मित्रो वरुणं दभस्यति भरद्भिरग्रशुभमन्य ईयते महेशल्काज वरुणस्य रत्विष ओजो विमादे ध्रुवमस्य यत्स्वम् अजामिमन्यष्टथयन्तमादिरद्दभ्रेभिरञ्जः प्रवृणोति भोजसः नतमम् भो न दुरिता निवर्त्यमिन्द्रा वरुणा नतमः कुतश्च न यस्य देवागच्छथो मेथो अध्वरन्नतम् मर्तस्य नशते परिःप्रतिः अर्वाङ्गरादैव्येनापसागतम् शृणुतम् हवञ्जति मे जुजोषधः यवार्हि सख्यपुतपाजदाप्यम् मार्डेकमिन्द्रावरुणा निजच्छतम् अस्माकमिन्द्रावरुणा भरे भरे पुराजोध भवतम् कृष्ट्योजसा यद्वाम् हवन्त उभजे अध स्मृति नरस्तोकस्य दनजस्य सादिश अस्मे इन्द्रो वरुणो मित्रो अर्जमाद्यम् नैयच्छन्दमहि शर्म सप्रथाः अभद्रञ्जो निरदितेरदावृधो देवस्य श्लोकम् सपितर्मनामहे।